एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री शेरबहादुर देउवा वदति निवेशकतृणाम् आकर्षणाय नीतिगतम् विधिगतम् च सुधारम् कर्तुम् सर्वकारः प्रतिबद्धो वर्तते। बालवाटारस्थिते प्रधानमन्त्री निवासे ह्या उपविष्टम् निवेशन समितेः उपवेशम् सम्बोधयन् प्रधानमन्त्री देउवा सम्भाव्यताध्ययनेन सम्बद्धानि कार्याणि तीव्ररूपेण अग्रे प्रवर्ध्य परियोजनानाम् निर्माणाय बलम् दातुम् निरदिशत। उपवेशेन डोटी जनपदस्य दीपायल सिलगढ़ी नगरपालिकायाम्, डडेलधुरा जनपदस्य अमरगढ़ी नगरपालिकायाम् च 50+ मेगावट मित क्षमतायाः सौर्योजसः उत्पादनस्य सम्भाव्यताध्ययनाय अनुमतिम् प्रदातुम् निर्णीतम् वर्तते। सौर्योजसः उत्पादनाय निवेशनकर्त्रा 23 अब्जानाम् रूप्यकाणाम् निवेशनाय प्रस्तावितम् वर्तते। प्रतिनिधि सभायाः अद्य बुधवासरे दिवा एकवादनाय आकारितः उपवेशः फाल्गुन मासस्य द्वितीय दिवसे दिवा द्विवादनाय सारितो वर्तते। संघीय संसद सचिवालयस्य महासचिवेन डाक्टर भरतराज गौतमेन ह्यसायं प्रकाशितायं सूचनायं अद्य बुधवासराय निर्धारितः प्रतिनिधि सभायाः उपवेशः विशेष कारणेन फाल्गुनस्य द्वितीय दिवसे उपवेशनाय निर्धारितो स्थिति उल्लिखितम् वर्तते। सर्वकारेण बर्ड फ्लू पक्षिज संक्रमणस्य निरोधनाय विराटनगर महानगरपालिकायाः 18 वडा क्षेत्रम् रोग प्रभावित क्षेत्रम् उद्घुष्टमस्ति। मन्त्रिपरिषदः उपवेशस्य निर्णयान् सार्वजनिकर्तुम् ह्यः सिंहप्रासादे आयोजिते पत्रकार सम्मेलने सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च ज्ञानेन्द्र बहादुर कार्की विराटनगरस्य हिमालयन कृषिशालाम् केन्द्रबिन्दुम् मत्वा रोग प्रभावित क्षेत्रम् उद्घुष्टमस्तीति अज्ञापयत्। उपवेशेन फेवारदस्य जलाधार क्षेत्रम् संरक्षित जलाधार क्षेत्रम् उद्घुष्टमस्ति। तथैव उपवेशेन गोर्खा जनपदवर्तिनः मध्य पर्वतीय राजमार्ग योजना कार्यालयस्य कार्यक्षेत्रस्य अन्तर्गतानाम् नुवाकोट जनपदस्य मार्गसिम्नः अभ्यन्तरे स्थितानाम् गृहाणाम् कृते सम्बद्ध जनेभ्य क्षतिपूर्तिम् दापयितुम् च निर्णीतमस्ति। सर्वकारस्य प्रवक्तुः मन्त्रिणः कार्किणः अनुसारेण मन्त्रिपरिषदः उपवेशेन एतत् विक्रमवर्षीये न्यासपत्र पञ्जीकरण निष्कासन पञ्चम संशोधन नियमावलिम् राष्ट्रिय परिचय पत्र पञ्जीकरण प्रथम संशोधन नियमावलिम् च स्वीकर्तुम् निर्णीतम् वर्तते। उपवेशेन एतत् विक्रमवर्षीय राष्ट्रिय प्रसारणैकादश संशोधन नियमावलिम् वैद्युताङ्कन प्रणाल्या मापन चित्राङ्कन भूमि प्रशासन सम्बद्ध सेवा प्रवाह निर्देशिकाञ्च असंक्रमणशील रोगाणाम् निरोधन नियन्त्रणयोः कृते बहुक्षेत्रीय कार्ययोजनाञ्च स्वीकर्तुम् निर्णीतम् वर्तते। राष्ट्रिय प्रजातन्त्र दलस्य पूर्वाध्यक्षेण कमल थापा विदेन दलात् पृथक भवनम् उद्घुष्टम् वर्तते। ह्यो विज्ञप्तिम् प्रकाश्य पूर्वाध्यक्षेण थापा विदेन दले दृश्यमानस्य सैद्धान्तिक विचलनस्य अनुचित प्रवृत्तेश्च सुधारः स्वेच्छा सत्यपि तस्य श्रवणाभावत् त्यागपत्रम् प्रदातुम् बाध्यभूतमिति उक्तमस्ति। थापाविदेन असहज मनसा पीड़ा बोधेन च दलात् पृथक् भवितुम् निर्णीतमिति विज्ञप्तौ उल्लिखितम् वर्तते। नेत्र विक्रमचन्द नेतृत्वस्य नेपाल कम्युनिष्ट दलस्य जुम्ला जनपद समितिः नेपाल कम्युनिष्ट पार्टी माओवादी केन्द्रे प्रविष्टा वर्तते। खुमलटार वर्तिनी माओवादी केन्द्रस्य अध्यक्षस्य पुष्पकमलदाहाल प्रचण्डस्य निवासे ह्य आयोजिते कार्यक्रमे जुम्ला जनपद इन्चार्ज पदीयेन चन्द्रवीर तिरुवा इत्यनेन सहितः 25 अधिकाः नेतारः कार्यकर्तारश्च माओवादी केन्द्रम् प्रविष्टाः सन्ति। तदवसरे अध्यक्ष दाहाल उचित समये माओवादी क्रान्तेः सहयात्रिभिः एकस्मिन् एव स्थाने स्थितेः विकल्पो नास्तीति चर्चा नवोचत। नवप्रवेशिभ्यो नेतृभ्यः कार्यकर्तृभ्यश्च दले उचितम् दायित्वम् प्रदास्यते। नेकपा एकीकृत समाजवादिनः केन्द्रीय सचिवालयोपवेशेन सम्पूर्ण शक्तिम् निर्वाचनाय केन्द्रीकर्तुम् निर्णीतम् अस्ति। दलाध्यक्षस्य माधव कुमार नेपालस्य अध्यक्षतायाम् गतदिने उपविष्टेन उपवेशेन पञ्चदलीय गठबन्धने सम्मिलिताः सर्वे पक्षाः एकताबद्धतया निर्वाचने सहभागिनो भवितुम् अनुरुद्धाः सन्ति। उपवेशेन आगामिनो वैशाख मासस्य 30 दिवसः स्थानीय स्तराणाम् निर्वाचनाय दिनाङ्क उद्घुष्टा इति कृत्वा कार्यमेतद् अभ्यर्थयता दिनाङ्क निर्धारणाय प्रदत्तः परामर्श सर्वकारेण क्रियान्वित स्थिति उल्लेख्य गठबन्धने सम्मिलितेभ्यो राजनीतिक दलेभ्य सर्वकाराय च धन्यवादम व्यक्तुम निर्णीतमस्ति। आगामी वर्षम निर्वाचन वर्षमस्तीति हेतु स्थानीय स्तराणाम निर्वाचनादेव दलस्य विजय प्राप्ताय क्रियाशीला भवितुम सम्पूर्ण नेतार कार्यकर्तारश्च आहुता सन्ति। दलस्य महासचिवेन डाक्टर बेदुराम भूषालेन उपवेशानन्तरं प्रकाशितायं विज्ञप्तौ लोकतन्त्रस्य उच्चतम प्रयोगो नाम निर्वाचनमस्तीति उल्लेखन पुरस्सरं निर्वाचनस्य माध्यमेन सर्वोत्कृष्टा भवितुम नेतृभिः कार्यकर्तृभिश्च सकला शक्तिः केन्द्रीकर्तव्येति बलं दत्तं वर्तते। निर्वाचन आयोगेन चित्र सहितानां मतदातृणां नामावल्याः संकलनं गतदिवसतः स्थगित कृतं वर्तते। सर्वकारेण आगामिनो वैशाख मासस्य त्रिंशो दिवस स्थानीय स्तराणां निर्वाचनस्य दिनांकः उद्घुष्टः तदनु आयोगेन मतदातृ नामावल्याः संकलनं स्थगयितुं निर्णीतमिति आयोगस्य प्रवक्ता शालिग्राम शर्मा पौडेलः अज्ञापयत। परह्यस्तनावधि संकलितां नामावलिम् अद्यावधिकीं विधाय अन्तिमरूपं प्रदास्यते इति च प्रवक्ता पौडेलः असूचयत। राष्ट्रिय सभायाः अन्तर्गतायां विधायन व्यवस्थापन समितौ गत विक्रमाब्दीयं सार्वजनिक सेवा प्रसारण विधेयकम् आश्रित्य विमर्शनं प्रारब्धमस्ति। राष्ट्रिय सभायां प्रस्तुतं विधेयकमिदं आधृत्य समितौ प्रकरणगत विमर्शनं विहितमिति समितेः सभापतिः परशुराम मेघी गुरुङ ज्ञापितवान्। रेडियो नेपालेन नेपाल टेलिभिजन संस्थानेन च पृथक पृथक प्रसारण सेवा प्रदानस्य अवस्थायां एतत् संस्थाद्वयम् एकीकृत्य सार्वजनिक सेवा प्रसारण संस्थायाः रूपेण स्थापनं विधेयके उल्लिखितं वर्तते। नेपाले ह्यातिरिक्तेषु 1750+ जनेषु कोरोना संक्रमणं पुष्टिभूतं वर्तते। ह्याराष्ट्रम् अतिरिक्ताः 5,300+ जनाः कोरोना संक्रमणात्मुक्ताः सन्ति। गतदिने आराष्ट्रम् कोरोना संक्रमणेन अतिरिक्ताः 11 जनाः मृताः। सम्प्रति आराष्ट्रम् 37,81+ सक्रिय संक्रान्ताः जनाः सन्तीति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। ह्य अतिरिक्त हि लक्षद्वयेन 37,49+ च जनैः कोरोना प्रतिरोधी टीकाकरणं गृहीतमिति मन्त्रालयोऽसौ सूचयति। स्वास्थ्य जनसंख्या मन्त्रालयेन अद्ययावत् कोरोना प्रतिरोधिना टीकाकरणस्य विवरणं प्रेषयितुम् अन्तर्गतस्य निकायाः निर्दिष्टाः सन्ति। कोविड 19 विषाणः प्रतिरोधिना टीकाकरणस्य अभिलेखस्य सम्बन्धे संगठितया समित्या निर्धारित समयस्य अभ्यन्तरे कतिचित् जनपदैः स्थानीय स्तरैश्च विवरणं न प्रेषितम् इति हेतोः एवं निर्दिष्टमस्ति।